ಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪದಾನ್ ಶೃಣ್ವನ್ನೋತಿಭಿಃ ಸೇದ ಸಾದರಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜೇಭಿರ್ ವಾಜಿನೀವತೀ ಧೀನಾಮವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿಃ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋತ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೆ ಬಾಹುಭ್ಯಾಮುತ ತೇ ನಮಃ ಯಾತ ಇಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೇ ಧನುಃ ಶಿವಾಶರವ್ಯಾಯಾತವತಯಾ ನೋ ರುದ್ರಮೃಣಯಾ ಯಾತೇ ರುದ್ರ ಶಿವಾತನೂರ ಘೋರಾ ಪಾಪಕಾಶಿನಿ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶನ್ ತಾಭಿ ಚಾಕಶೇ ಯಾಮಿಷುಂ ಗಿರಿಶಂತ ಹಸ್ತೇ ಬಿಭರ್ಷ್ಯಸ್ತವೇ ಶಿವಾಂ ಗಿರಿತ್ರತಾಂ ಕುರುವಾಹಿ ಗುಂಸಿ ಪುರುಷಂ ಜಗತ್ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾರ್ಚಾ ವದಾಮಸೇ ಯಥಾ ನಃ ಸರ್ವಮಿಜ್ಜಗದ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತ್ ಅಧ್ಯವೋಚದಧಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ್ ಅಹೇಗುಶ್ಚ ಸರ್ವಾನ್ ಜಂಭಯನ್ ಸರ್ವಾಶ್ಚ ಯಾತು ಧಾನ್ಯಃ ಅಸೌ ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಬಭ್ರುಸ್ಸು ಮಂಗಲಃ ಯೇ ಚೇವಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷು ಶ್ರಿತಾ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಳಯೇಮಹೇ ಅಸವ್ಯೋ ವಸರ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉತೈನಂ ಗೋಪಾ ಅದೃಶನ್ನ ದೃಶನ್ನುದಹಾರ್ಯಃ ಉತೈನಂ ವಿಶ್ವಾ ಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಳಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಡುಷೇ ಅಥೋ ಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂತೇಭ್ಯೋ ಕರಣ್ಣವಃ ಪ್ರಮುಂಚಧನ್ವನಸ್ತ್ವಮುಭಯೋರಾತ್ನಿಯೋರ್ಜಾ ಯಾಶ್ಚ ದೇಹಸ್ತ ಇಷವಃ ಪರಾತಾ ಭಗವೋ ವಪ ಅವದತ್ಯಧನುಸ್ತ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇ ಶುಧೇ ನಿಷೇರ್ಯ ಶಲ್ಯಾನಾಮುಖಾ ಶಿವೋನ ಸುಮನಾಭವ ವಿಜ್ಯಂ ಧನುಃ ಕಪದ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಉತ ಅನೇಷನ್ನಸ್ಯೇಷವ ಆಭುರಸ್ಯ ನಿಷಂಗತಿಃ ಯಾತೇ ಹೇತಿರ್ಮೀಡುಷ್ಟಮಹಸ್ತೆ ಬಭೂವತೇ ಧನುಃ ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ತ್ವಮಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ತ್ವಾಯುಧಾಯಾನಾತತಾಯ ಧೃಷ್ಣವೇ ಉಭಾಭ್ಯಾಮುತತೇ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೇ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ಪೃಣಕ್ತು ವಿಶ್ವತಃ ಅಥೋಯ ಇಷುಧಿಸ್ತವಾರೆ ಅಸ್ಮನ್ನಿಧೇ ಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ. నమో హిరణ్యబాహవే సేనాన్యే దిశాత్ చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్యః పశూనాం పతయే నమో నమః సస్పింజరాయ త్విషేమతే పథీనాం పతయే నమో నమో బభ్రుషాయ వ్యాధినేన్నానాం పతయే నమో నమో హరికేశాయోపవీతినే పుష్టానాం పతయే నమో నమో భవస్య హేత్యై జగతాం పతయే నమో నమో రుద్రాయ తతావినే క్షేత్రానాం పతయే నమో నమః సూతాయ హంత్యాయ వనానాం పతయే నమో నమో రోహితాయ స్థపతయే వృక్షాణాం పతయే నమో నమో మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో భువంతయే వారివత్కృతాయ ఔషధీనాం పతయే నమో నమ ఉచ్చైర్ఘోషాయాత్క్రందయతే పత్తీనాం పతయే నమో నమః కృష్ణవీతాయ ధావతే సత్వనాం పతయే నమః నమః సహమానాయణ వ్యాధినీనాం పతయే నమో నమః కకుభాయ నిషంగిణేస్తేనానాం పతయే నమో నమో నిషంగిణ ఇషుధిమతి తస్కరాణాం పతయే నమో నమో వంచతే పరివంచతే స్థాయూనాం పతయే నమో నమో నిచేరవే పరిచరాయారణ్యానాం పతయే నమో నమః శ్రీకావిభ్యో జిగాగుం సద్భ్యో ముష్ణతాం పతయే నమో నమో శ్రీమద్భ్యో న కంచరద్భ్యః ప్రకృంతానాం పతయే నమో నమ ఉష్ణీషిణే గిరిచరాయ కులుంచానాం పతయే నమో నమ ఇషుమద్భ్యో దన్వావిభ్యశ్చ భో నమో నమ ఆదన్వానేభ్యః ప్రతిదధానేభ్యశ్చ భో నమో నమ ఆయచ్ఛద్భ్యో విసృజద్భ్యశ్చ భో నమో నమోస్యభ్యో విద్యద్భ్యశ్చ భో నమో నమ ఆసీనేభ్య శయానేభ్యశ్చ భో నమో నమ స్వపద్భ్యో జాగ్రభ్యశ్చ భో నమో నమ శిష్టభ్యో ధావద్భ్యశ్చ భో నమో నమ సభాభ్యః సభాపతిభ్యశ్చ భో నమో నమో అశ్వేభ్యో అశ్వబలిభ్యశ్చ భో నమః నమ ఆవ్యాధినేభ్యో వివిధ్యంతేభ్యశ్చ భో నమో నమ ఉగణాభ్యస్త్రిగుంభతేభ్యశ్చ భో నమో నమో గృత్సేభ్యో గృత్సపదిభ్యశ్చ భో నమో నమో వ్రాతేభ్యో వ్రాతపదిభ్యశ్చ భో నమో నమో గణేభ్యో గణపతిభ్యశ్చ భో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ భో నమో నమో మహద్భ్యః క్షుల్లకేభ్యశ్చ భో నమో నమో రథిభ్యో రథేభ్యశ్చ భో నమో నమో రథేభ్యో రథపదిభ్యశ్చ భో నమో నమః సేనాభ్యః సేనానిభ్యశ్చ భో నమో నమః శత్రుభ్యః సంగ్రహీతృభ్యశ్చ భో నమో నమః సక్షభ్యో రథకారేభ్యశ్చ భో నమో నమః కులాలేభ్య కర్మారేభ్యశ్చ భో నమో నమః పుందిష్ఠేభ్యో నిషాదేభ్యశ్చ భో నమో నమ ఇషుకృద్భ్యో దన్వకృద్భ్యశ్చ భో నమో నమో మృగయుభ్యశ్వనిభ్యశ్చ భో నమో నమః శ్వభ్యశ్వపదిభ్యశ్చ భో నమః నమో భవాయ చ రుద్రాయ చ నమః शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्ठाय च नमो मीदुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षेयसे च नमो वृद्धाय च संवृध्वने च नमो अग्रजाय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रजाय च शेभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च पगल्भाय च नमो जघञ्जाय च बुध्नियाय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च कल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रभृशाय च नमो धूताय च प्रहिताय च नमो निषङ्गिणे चेषु धिमते च नमः शेषेशवे चायुधिने च नमः स्वायुधाय च सुदन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः शोध्याय च सरस्याय च नमो नाद्याय च वैषन्ताय च नमः कोप्याय च भट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्रियाय च तप्याय च नमो वात्याय च रेश्मयाय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो अन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः स्तीर्थ्याय च कोर्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः शष्प्याय च पेन्याय च नमः सिकत्याय च प्रवाह्याय च नमः इरिञ्जाय च प्रपत्याय च नमः किगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्थल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय लोप्याय च नमो लोप्याय च लप्याय च नमः ऊर्व्याय च सूर्व्याय च नमः पर्ण्याय च पर्णशद्याय च नमोपगुरमाणाय च भिघ्नते च नमः आखिदते च प्रखिदते च नमो वक्रिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धसस्पदे दरिद्रन्नील लोहिता एषाम् पुरुषाणामेषाम् पशूनाम् मा भेर्मा रोमो एषाम् किञ्चनाममत या ते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे इमागुम् रुद्राय तवसे कपद्दिने क्षयद्वेराय प्रभरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृणानो रुद्रो तनो मयस्कृति क्षयद्वेराय नमसा विधेमते यच्छम् च योश्चमनुराजजे पिता तदश्याम तव रुद्र प्रणीतो मानो महान्तमुतमानो अर्भकम् मान उक्षम् तमुतमान उक्षितम् मानो वदे पितरम् मात मातरम् प्रियामानस्तनुवो रुद्ररेषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितोपधेर्हविष्मन्तो नमसा विधेमते आरात्ते गोघ्न उत पोरुषग्ने क्षयद्वेराय सुम् नमस्मेते अस्तु रक्षा च नो अधि च देव ब्रूह्यथा च नः शर्म यच्च द्विवर्हाः स्तुहि श्रुतम् गत्त स दैयुवानम् मृगन्न भीममुपहत्नुमुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मतिरघायोः अवस्थिरा मघवद्यस्तनुष्वमेद्वस्तोकायतनयाय मृडया मेडुष्टम शिव तम शिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्रिम् वसा न आचर पिनाकम् बिभ्रदा गहे विकिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोऽन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृधे सहस्राणि सहस्रशो ये रुद्र अधिभूम्या तेषाकुम् सहस्रयो जने बधन्वानि तन्मसे अस्मिन्महत्यर्णवेन्तरिक्षे भवा अधि नीलग्रीवाशितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखासक्कपद्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान ये पथाम् पथिरक्षय ऐलभृदाय व्युधः ये तीर्थानि प्रचरन्ति श्रुकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुम् सहस्रयो जने वधन्वानि तन्वसे namo rudrebhyo ye prithivyam ye antarikshe ye divye shamannam vato varshamishavastebhyo dasha prachirdasha lakshina dasha pratichirdasho dichirdasho dvastebhyo namaste no mridayantu deyam vishmo yascha no dveshitam vojam bhedathami त्र्यम्बकयजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षे यमामृतात् यो रुद्रो अग्नव्यो अप्सु योषधेषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु ये ते सहस्रमयुतम् पाशा मृत्यो मर्त्याय हन्तवे तान् यज्ञस्य मायया सर्वानमयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानां ग्रन्थिरसि रुद्रो माभिशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यस्विषुः सुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमोभिर्देववसुरन्दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगुम् शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः ॐ शं च मे मयश्च मे प्रियं च मेनु कामश्च मे कामश्च मे सोमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे सीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुखम् च मे शयनम् च मे सुषा च मे सुदिनम् च मे ॐ शान्ति शान्ति शान्तिः शन्नो मित्रः शं वरुणः शन्नो भवत्वर्यवा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वाय त्वमेव प्रत्यक्षं ब्रह्मासि त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्नामवतु तद्वक्तारमवतु अवतु माम् अवतु वक्तारम् ॐ शान्ति शान्ति शान्तिः शीक्षां व्याख्यास्यावः वर्णस्वरः मात्राबलम् सावसन्तारः इत्युक्तः शीक्षाध्यायः सह नौ यशः सह नौ ब्रह्मवर्चसम् अथातः सगुंहिताय उपनिषदम् व्याख्यास्यावः पञ्चस्वधिकरणेषु
अधिलोकमधिज्योतिषमधि विद्यमधि प्रजमध्यात्मम् तावः सगुंहिता इत्याचक्षते अथाधिलोकम् पृथिवी पूर्वरूपम् द्यौरुत्तररूपम् आकाशः सन्धिः वायुः सन्धानम् इत्यधिलोकम् अथाधिज्योतिषम् अग्निः पूर्वरूपम् आदित्य उत्तररूपम् आपः सन्धिः वैद्युतः सन्धानम् इत्यधिज्योतिषम् अथाधिविद्यम् आचार्यः पूर्वरूपम् अन्तेवास्युत्तररूपम् विद्यासन्धिः प्रवचनगुम् सन्धानम् इत्यधिविद्यम् अथाधिप्रजम् मातापूर्वरूपम् पितोत्तररूपम् प्रजासन्धिः प्रजननगुम् सन्धानम् इत्यधिप्रजम् अथाध्यात्मम् अधराहनुपूर्वरूपम् उत्तराहनुरुत्तररूपम् वाक्सन्धिः जिह्वासन्धानम् इत्यध्यात्मम् इति महासगुंहिताः य एवमेता महासगुंहिता व्याख्याता वेदा सन्धीयते प्रजया पशुभिः ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन यश्छन्दसा मृषभो विश्वरूपः छन्दोऽभ्यध्यमृतात् सम्बभूव समेन्द्रो मेधया स्पृणोतु अमृतस्य देवधारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरिविश्रुवम् ब्रह्मणः कोशोऽसि मेधया पिहितः श्रुतम् मे गोपाया आवहन्ति वितन्वाना कुर्वाणाचीरमात्मनः वासागुम् शिव भगावश्च अन्नपाने च सर्वदा ततो मे श्रियमापः लोभशाम् पशुभिः सह स्वाहा आमायन्तु ब्रह्मचारिणः स्वाहा विमायन्तु ब्रह्मचारिणः स्वाहा प्रमायन्तु ब्रह्मचारिणः स्वाहा दमायन्तु ब्रह्मचारिणः स्वाहा शमायन्तु ब्रह्मचारिणः स्वाहा यशोजने सानि स्वाहा श्रेयान्वस्य शोषानि स्वाहा तन्त्वाभगप्रविशानि स्वाहा समाभगप्रविश स्वाहा तस्मिन् सहस्रशाखे निभगाहम् त्वयि मृजे स्वाहा यथा पप्रवतायन्ति यथा वासा अहर्जरम् एवम् माम् ब्रह्मचारिणः धातरायन्तु सर्वतः स्वाहा प्रतिवेशोऽसि प्रमाभाहि प्रमापद्य स्वा भूर्भुवः सुवरिति वा एतास्तिस्राभ्या हृदयः तासामुहस्मैतान् चतुर्थीम् माहाचमस्य प्रवेदयते मह इति तद्ब्रह्म स आत्मा अङ्गान्यन्या देवताः भूरिति वा अयम् लोकः भुव इत्यन्तरिक्षम् सुवरित्यसौ लोकः मह इत्यादित्यः आदित्येन वाव सर्वे लोका महीयन्ते भूरिति वा अग्निः भुव इति वायुः सुवरित्यादित्यः मह इति चन्द्रमाः चन्द्रमसा वाव सर्वाणि ज्योतिगुंषि महीयन्ते भूरिति वा ऋचः भुव इति सामानि सुवरिति यजोगुंषि मह इति ब्रह्मा ब्रह्मणा वाव सर्वे वेदा महीयन्ते भूरिति वै प्राणः भुव इत्यपाणः सुवरिति व्यानः मह इत्यन्नम् अन्नेन वाव सर्वे प्राणा महीयन्ते तावा एताश्चतस्रश्चतुर्धा चतस्रश्चतस्रो व्याहृतयः तायो वेदा स वेद ब्रह्मा सर्वेऽस्मै देवा बलिमावहन्ति स य एषोऽन्तर्हृदय आकाशः तस्मिन्नयम् पुरुषो मनोमयः अमृतो हिरण्मयः अन्तरेण तालुके य एष स्तन इव अवलम्बते सेन्द्रयोनिः यत्रासौ के शान्तो विवर्तते व्यपोह्य शीर्षकपाले भूरित्यग्नौ प्रतिष्ठति भुव इति वायौ सुभरित्यादित्ये मह इति ब्रह्मणि आप्नोति स्वाराज्यम् आप्नोति मनसस्पतिम् वाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिः एतत्ततो भवति आकाशशरीरम् ब्रह्मा सत्यात्मप्राणारामम् वन आनन्दम् शान्तिसमृद्धममृतम् इति प्राचीनयोग्योपास्वा पृथिव्यन्तरिक्षम् जौर्दिशो वान्तरदिशाः अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि आप ओषधयो वनस्पतय आकाश आत्मा इत्यधिभूतम् अथाध्यात्मम् प्राणो व्याणोपान उदानः समानः चक्षुश्रोत्रम् मनोवाक्त्वक चर्ममागुंसर्गस्नावास्थिमज्जा एतदधिविधाय ऋषिरवोचत पान्तम् वा इदगुम् सर्वम् पान्ते नैव पान्तगुस्पृणोति ओमिति ब्रह्मा ओमितीदगुम् सर्वम् ओमित्येतदनुकृतिः स्म वा अप्योश्रावयेत्याश्रावयन्ति ओमिति सामानि गायन्ति ओगुंशोमिति शस्त्राणि शगुंसन्ति ओमित्यध्वर्यः प्रतिगरम् प्रतिगृणाति ओमिति ब्रह्मा प्रसौति ओमित्यग्निहोत्रमनुजानाति ओमिति ब्राह्मण प्रभक्षन्नाः ब्रह्मोपाप्नवानीति ब्रह्मैवोपाप्नोति ऋतम् च स्वाध्याय प्रवचने च सत्यम् च स्वाध्याय प्रवचने च तपश्च स्वाध्याय प्रवचने च दमश्च स्वाध्याय प्रवचने च शमश्च स्वाध्याय प्रवचने च अग्नयश्च स्वाध्याय प्रवचने च अग्निहोत्रम् च स्वाध्याय प्रवचने च अतिथयश्च स्वाध्याय प्रवचने च मानुषं च स्वाध्याय प्रवचने च प्रजा च स्वाध्याय प्रवचने च प्रजनश्च स्वाध्याय प्रवचने च प्रजातिश्च स्वाध्याय प्रवचने च सत्यमिति सत्यवचाराधीतरः तप इति तपनित्यः पौरुषिष्टिः स्वाध्याय प्रवचने एवेति नाको मौद्गल्यः तद्धि तपस्तद्धि तपः अहम् वृक्षस्य रेरिव कीर्तिपृष्ठम् गिरेरिव ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि द्रविणगुम् सवर्चसम् सुमेधा अमृतोक्षितः इति त्रिशङ्कोर्वेदानुवचनम् वेदमनोच्याचार्यो अन्ते वासिनमनुषास्ति सत्यम् वद धर्मम् चर स्वाध्यायान्मा प्रबदः आचार्याय प्रियम् धनमाहृत्य प्रजातन्तुम् मा व्यवच्छेत्से सत्यान्न प्रवदितव्यम् धर्मान्न प्रवदितव्यम् कुशलान्न प्रवदितव्यम् भूत्यैर प्रवदितव्यम् स्वाध्याय प्रवचनाभ्याम् न प्रवदितव्यम् देवपितृकार्याभ्याम् न प्रवदितव्यम् मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव यान्यनवद्यानि कर्माणि तानि सेवितव्यानि न इतराणि यान्यस्माकम् सुचरितानि तानि त्वयोपास्यानि न इतराणि ये के चास्मच्छ्रेयागुंसो ब्राह्मणाः तेषाम् त्वयासनेन प्रश्वसितव्यम् श्रद्धया धेयम् अश्रद्धया धेयम् श्रिया धेयम् ह्रिया धेयम् भिया धेयम् संविदा धेयम् अथ यदि ते कर्म विचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ये तत्र ब्राह्मणा संहर्षिणः युक्ता युक्ताः अलोक्षा धर्मका वा स्युः यथा ते तत्र वर्तेरन्न तथा तत्र वर्तेथाः अथाभ्याख्यातेषु ये तत्र ब्राह्मणा संहर्षिणः युक्ता आयुक्ताः अलोक्षा धर्मका वा स्युः यथा ते तेषु वर्तेरन्न तथा तेषु वर्तेथाः एष आदेशः एष उपदेशः एषा वेदोपनिषत् एतदनुशासनम् एवमुपासितव्यम् एवमुचैतदुपास्यम् शन्नो मित्रः शम्वरुणः शन्नो भवत्वर्यव शण्ड इन्द्रो बृहस्पतिः शण्डो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वामेव प्रत्यक्षम् ब्रह्मावादिशम् ऋतमवादिशम् सत्यमवादिशम् तन्मावेत् तद्वक्तारमावेत् आवेन्माम् आवेद्वक्तारम् ॐ शान्ति शान्ति शान्तिः ॐ ब्रह्मा आत्मन्मदसृजत तदकामयत समात्मना पद्येयेते आत्मन्नात्मन्यत्यामन्त्रयत तस्मै दशमगुं भूत प्रत्यशृणोत् स दशहूतो भवत् दशहूतो हवैनामैषः तम् वा एतम् दशहूतगुं सन्तम् दशहूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै सप्तमगुम् भूत प्रत्यशृणोत् स सप्तभूतो भवत् सप्तभूतो हवैनामैषः तम् वा एतम् सप्तभूतगुम् सन्तम् सप्तभूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै षष्ठगुम् भूत प्रत्यशृणोत् स षड्भूतो भवत् षड्भूतो हवैनामैषः तम् वा एतम् षड्भूतगुम् सन्तम् षड्भूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै पञ्चमगुम् भूत प्रत्यशृणोत् स पञ्चभूतो भवत् पञ्चभूतो हवैनामैषः तम् वा एतम् पञ्चभूतगुम् सन्तम् पञ्चभूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै चतुर्थगुम् भूत प्रत्यशृणोत् स चतुर्भूतो भवत् चतुर्भूतो हवैनामैषः तम् वा एतम् चतुर्भूतगुम् सन्तम् चतुर्भूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः तमब्रवेत् त्वम् वै मे मेदिष्टगुम् भूत प्रत्यश्रौषीः त्वयैनानाख्यातारयिते तस्मान्नुहैनागुम् चतुर्भूतारमित्याचक्षते तस्माच्छुश्रूषु पुत्राणागुम् हृद्यतमः मेदिष्टो हृद्यतमः मेदिष्टो ब्रह्मणो भवति य एवम् वेदा आत्मने नमः राजाधिराजाय प्रतयसाहिने नमो वयम् वै श्रवणाय कुर्महे समेकामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो दधातु कुबेराय वै श्रवणाय महाराजाय नमः ॐ तद्ब्रह्मा ॐ तद्वायुः ॐ तदात्मा ॐ तत्सत्यम् ॐ तत्सर्वम् ॐ तत्पुरोर्नमः अन्तश्चरति भूतेषु गुहायाम् विश्वमूर्तिषु ത്വം യജ്ഞസ്ത്വം വഷട്കാരസ്ത്വമിന്ദ്രസ്ത്വഗും രുദ്രസ്ത്വം വിഷ്ണുസ്ത്വം ബ്രഹ്മസ്ത്വം പ്രജാപതിഃ ത്വം തദാപ ആപോ ജ്യോതിരസോമൃതം ബ്രഹ്മഭൂർഭുവസ്സുഭരോ സ്വസ്തി പ്രജാഭ്യഃ പരിപാലയന്താ ന്യായേന മാർഗേണ മഹീം മഹീഷാഃ ഗോബ്രാഹ്മണേഭ്യഃ ശുഭമസ്തു നിത്യം സമസ്തലോകാഃ സുഖിനോ ഭവന്തു സമസ്തലോകാഃ സുഖിനോ ഭവന്തു സമസ്തലോകാഃ സുഖിനോ ഭവന്തു ഓം ശാന്തി ശാന്തി ശാന്തി.